एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति प्रतिकूलावस्थायामपि सप्तसप्तत्यधिक द्विसहस्रतम विक्रम वर्षम् राजनैतिकार्थिक सामाजिक दृष्ट्या सफलतायाः वर्षम् अवर्तत। एतदीय नूतन संवत्सरस्य अवसरे ह्य शुभकामना सन्देशं ददत् प्रधानमन्त्री ओली विभिन्न प्रकारकेषु प्रवादेषु नावरुध्य राष्ट्र निर्माणाय अग्रे वर्धितुम् आह्वयत्। परस्परं विभाजन वैमनस्ययोः वैपरीत्येन राष्ट्रियैकतया सर्वकारेण एतदीय नूतन संवत्सरे नवीन कार्याणि विधीयमानानि सन्तीति ज्ञापयन् प्रधानमन्त्री ओली कोविड 19 सुरक्षायाः मापदण्डम् सावधानतापूर्वकम् पालयितुम् अन्वरुणत्। प्रधानमन्त्री ओली कोरोना विषाणोः संक्रमणे वर्धमाने सत्यपि सर्वकारः तत्कालम् परिपिधानस्य पक्षे नास्तीति समस्पष्टयत्। प्रधानमन्त्रिणा ओलिना भाषितम् सर्वकारस्य उचितनीतेः कारणेनैव कोरोना विषाणुतः तुलनात्मकरूपेण न्यूना क्षतिर्भूतास्ति। प्रधानमन्त्री ओली विपुल परिमाणस्य विकास निर्माणयोः कार्याणि तीव्रतया अग्रे वर्धितानि सन्तीति चर्चेन अवोचत् सर्वकारेण मेलञ्चि नद्या जलम् काष्ठमण्डपमानीय प्रतिगृहम् प्रापय्य च हर्षम् उद्भावयितुम् साफल्यमधिगतम् वर्तते। प्रधानमन्त्री ओली सर्वकारेण रेलयानद्वयम् कृतमस्तीति बोधयन् अवदत् एतस्मादेव मासात् रेलयानमेतत् सञ्चालयिष्यते। सर्वकारः युवभ्य उपयुक्त वृत्त्युपार्जनस्य अवसरम् स्रष्टुम् क्रियाशीलोऽस्तीति भाषमाणः प्रधानमन्त्री ओली उपलब्धम् वृत्त्युपार्जनम् उपयुज्य देशविकासे क्रियाशीलाः भवितुम् सम्पूर्णान् यूनः आह्वयत्। एसिड् ज्वलनशील पदार्थस्य आक्रमणस्य विरुद्धे सर्वकारेण अध्यादेशस्य माध्यमेन कठोरविधिः आनीतोऽस्तीति स्मरन् प्रधानमन्त्री ओली अकथयत् न्यायिक प्रकरणम् विजित्य प्रत्यावर्तितायाम् संसदि प्रतिपक्षिदलैः अध्यादेशस्य आनयनम् अवरोधितम् वर्तते। गतवर्षे स्वस्य सम्पूर्णान् भूभागान् समावेश्य नवीन मानचित्रम् प्रकाशितम् इति स्मरन् प्रधानमन्त्री ओली राष्ट्रियैकतायाः पक्षे स्थातुम् सम्पूर्ण जनान् अन्वरुणत। प्रधानमन्त्री केपी शर्मा ओली आविश्वम् विद्यमानान् आवासीयतर नेपालिनः नेपाले निवेशयितुम् अनुरुणद्धि। नूतन विक्रम संवत्सरस्य अवसरे ह्यो बालबाटार वर्तिनः प्रधानमन्त्री निवासात् विभिन्नेषु देशेषु विद्यमानान् नेपालिनो जुम श्रव्य दृश्य संयोजन प्रविधि माध्यमेन सम्बोधयन् असौ नेपाले शान्तिपूर्णम् अनुकूलम् च व्यावसायिक वातावरणम् सदुपयुज्य वैदेशिक निवेशनम् प्रोत्साहयितुम् स्वयं च नेपाले एव निवेशयितुम् च आविश्वम् विद्यमानान् आवासीयतर नेपालिनः अन्वरुणत। प्रधानमन्त्री ओली विपुला योजनानाम् कृते संयुक्त निवेशनम् नेपाले एव विधातुम् उपयुक्तम् भवतीति सन्देशम् वैदेशिकानाम् पुरतः प्रापयितुमपि अन्वरुणत। राष्ट्रपतिना विद्यादेवी भण्डारिणा राष्ट्रस्य विभिन्न क्षेत्रेषु प्राप्त योगदानाः व्यक्तयः ह्यो विभिन्नैः मानपदवीभिः अलंकार पदकैश्च सुशोभिताः सन्ति। शीतल निवासवर्तिने राष्ट्रपति भवने आयोजिते समारोहे गत चैत्रस्य सप्तविंशे दिवसे वितरणाय अवशिष्टाभ्यो व्यक्तिभ्यः ह्य विभिन्नानि मान पदव्यलंकार पदकानि प्रदत्तानि वर्तन्ते। गत विक्रम वर्षस्य आश्विन मासस्य तृतीये अन्नि राष्ट्रिय दिवसस्य अवसरे संविधान दिवसे च विभूषणाय उद्घुष्टमासीत्। मान पदवी समूहे प्रबल जनसेवा श्री चतुर्थ विभूषणेन रेडियो नेपालस्य उपनिर्देशकः टीका प्रसाद भण्डारी च विभूषितोऽस्ति। ऐतिहासिकस्य धरहरा स्तम्भस्य उद्घाटनम् प्रधानमन्त्रिणा केपी शर्मा ओलिना अस्यैव वैशाख मासस्य एकादशे दिवसे विधाता। द्विसप्तत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य विनाशकारी भूकम्पेन विध्वस्तासु धरहरा स्तम्भ प्रवृत्तिषु ऐतिहासिक सम्पत्सु प्राय सम्पदाम् पुनर्निर्माण कार्यम् सम्पन्नमस्तीति राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य प्रमुख कार्यकार्यधिकृतः सुशील ज्ञवाली अज्ञापयत्। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ भासते सर्वकारः सर्वविधान समाह्वयान् प्रतिकर्तुम् तत्परो वर्तते। समाज कल्याण परिषदः राष्ट्रिय ज्येष्ठ नागरिक कोषेण ह्य ललितपुरस्य मंगल बजार स्थाने आयोजिते नूतन विक्रम संवत्सरस्य शुभकामनायाः आदान प्रदान कार्यक्रमे मन्त्री गुरूङ राष्ट्रस्य राजनीतिकी यात्रा संशयपूर्णा भीत्येति कारणेन राष्ट्रम् दिग्विहीनम् भवति वा इति चिन्ताम् व्यक्तवान्। कार्यक्रमे ललितपुर महानगरपालिकायाः प्रमुखेण चिरीबाबु महर्जनेन वाङ्मय शताब्दी पुरूषेण सत्यमोहन जोशिना च ज्येष्ठ नागरिकेभ्यः निधनस्य अपेक्षया जीवनावस्थायामेव सहयोगो विधातव्य ज्येष्ठ नागरिकाणाम् अनुभवेन समाजेन राष्ट्रेण च लाभ ग्रहणीय चेत्यत्र बलम् प्रदत्तम्। या प्युठान जनपदस्य स्वर्गद्वारी नगरपालिकाया तृतीयवडा क्षेत्रस्य रूमाले स्थाने जीपयानस्य दुर्घटनायां पञ्चमृता द्वादश जना आताश्च सन्ति। जीपयाने आरूढानां सप्तदशानां मध्ये द्वादश जना आता सन्ति। आहतेषु पञ्चजना उपचाराय काष्ठमण्डपं प्रेषिता सन्तीति प्युठान जनपदस्य प्रमुख जनपदाधिकारी खिमराज भूषालः अज्ञापयत्। नेपाले ह्य अतिरिक्ताः 63% जनाः कोरोना विषाणुना संक्रान्ताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः काष्ठमण्डपोपत्यकायां 45.2% जनै सह आराष्टम् अतिरिक्ताः 63% जनाः कोरोना विषाणुना संक्रान्ताः सन्तीति अज्ञापयत्। एवमेव ह्य आराष्टम् अतिरिक्ताः 29% जना कोरोना संक्रमणात् मुक्ताः वर्तन्ते। ह्य कोरोना संक्रमणेन आराष्टम् अतिरिक्तं जनत्रयं मृतम्। एतदनु संक्रमणेन मृतानां जनानां नेपाले ह्यस्तनावधि समग्र संख्या 61,63 प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। इस्लाम धर्मावलम्बीनां रमजान पवित्र मास ह्य प्रारब्ध। इस्लाम परम्परायाः अनुसारेण सावान मासानन्तरं रमजान पवित्र मास प्रारब्धो भवति। इस्लाम धर्मावलम्बीभिः मासेस्मिन् सोपवासं विशेषरूपेण प्रार्थना कुरान पवित्र ग्रन्थस्य पाठश्च विधीयते। कर्णाली प्रदेशस्य मुख्यमन्त्रिणा महेन्द्र बहादुर शाहिना श्व शुक्रवासरे प्रदेशसभायां विश्वासस्य मतानि प्राप्तुं पूर्वकार्यं विहितं वर्तते। मुख्यमन्त्रिणा शाहिना प्रदेशसभा सचिवालयाय पत्राचारं विधाय नेपालस्य संविधानस्य अनुसारेण विश्वासस्य मतानां प्राप्तये आवश्यक व्यवस्थां विधातुम् अनुरुद्धं वर्तते। कर्णाली प्रदेशसभायां नेकपा एमाले दलेन माओवादी नेतृत्वस्य प्रदेश सर्वकाराय एतत्पूर्वं प्रदत्तं समर्थनम् गत चैत्रस्य पञ्चमे दिवसे प्रत्यावर्तनानन्तरं मुख्यमन्त्रिणा साइना विश्वासस्य मतानि प्राप्तव्यानि वर्तन्ते। प्रदेशसभायाः सप्तमं शीतकालिकाधिवेशनमपि स्व एव प्रारब्धा। निर्वाचनायोगेन नेपाली नागरिकतां प्राप्यापि मतदातृ नामावल्यां नाम पञ्जीकरणाय अवशिष्टा व्यक्तयो जनपद निर्वाचन कार्यालयं गत्वा सचित्रं मतदातृ नामावल्यां नामानि पञ्जीकारयितुम् अनुरुद्धाः सन्ति इति समाचारः।